एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। नेपाली कांग्रेस दलस्य संसदीय दलस्य ह्य उपविष्टेन उपवेशेन वर्तमान सर्वकाराय विश्वासस्य मतं देयं न देयं इति विषयं पौषस्य षड्विंशे दिवसे एव निर्णेतुं निर्णीतं वर्तते। सिंहप्रासाद स्थिते नेपाली कांग्रेस संसदीय दलस्य कार्यालय गतदिने उपविष्टम उपवेशमनु संचारकर्मीभिः सह ब्रुवन् सांसद डाक्टर प्रकाश शरण महत पौषस्य षड्विंशे दिवसे प्रातः उपवेक्षमाणेन उपवेशेन विश्वासस्य मतं देयं न देयं वेति विषयो निर्देश्यते इति अज्ञापयत्। नेपाली कांग्रेस दलस्य प्रवक्ता च सांसद डाक्टर महत प्रतिनिधि सभायाः सदस्यपदे दलस्य पक्षतो निर्वाचिताः सांसदाः संसदीय अग्रे वर्धन विधि प्रवृत्ति विषयेषु उपवेशे ज्ञापिताः इति अभासत। उपवेशानन्तरं नेपाली कांग्रेस दलस्य महामन्त्री सांसदश्च गगन कुमार थापा सर्वकाराय विश्वासस्य मतं देयं न देयं इति विषये नेपाली कांग्रेस दलेन विगत समयेपि मतग्रहणस्य दिने एव निर्णय विद्यमानो स्थिति हेतोः संसदीय दलेन पौषस्य षड्विंशे दिवसे विषयोऽसौ निर्णेष्यते इत्यगदत्। अहिसम्म निर्वाचनस्य पश्चात् नेपाली कांग्रेस दलस्य सभापतेः पूर्व प्रधानमन्त्रिणश्च शेरबहादुर देवाविदस्य दलस्य संसदीय दलस्य नेतारी निर्वाचयनम् अनु प्रथमवारं संसदीय दलस्य उपवेशोऽसौ उपविष्टो वर्तते। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड भाषते संघीय शिक्षाधिनियमस्य क्रियान्वयनं वर्तमान सर्वकारस्य प्राथमिकतायं वर्तते। काष्ठमण्डपस्य महेन्द्र माध्यमिक विद्यालये ह्य एकीकृताखिल नेपाल शिक्षक संगठनस्य केन्द्रीय समितेः उपवेशं सम्बोधयन् प्रधानमन्त्री प्रचण्ड अवोचत् संघीय शिक्षाधिनियमस्य क्रियान्वयनस्य विषये सर्वकार गभीरो वर्तते। असौ पूर्ववर्ती सर्वकारस्य कार्यकालेऽपि संघीय शिक्षाधिनियमस्य कतिचित् कार्याणि सम्पन्नानि इति चर्चेन अकथयत्। एतद्वारं संघीय शिक्षाधिनियमस्य आनयन विषयः सर्वकारस्य प्राथमिकतायां वर्तते। प्रधानमन्त्री प्रचण्डः अवोचत् आराष्ट्रं शिक्षकेभ्यः स्वास्थ्यसेवां प्रदातुं शिक्षक चिकित्सालयो निर्मास्यते। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली वदति वर्तमान सर्वकारं सफलं जनपदीयं च विदातुं नेकपा एमाले दलं सर्वविधान सहयोगान् विदधाति। नेकपा एमाले दलस्य संसदीय दलस्य उपविभागेन संसदीय विभागेन ह्यो नयाँ वानेश्वर वर्तिनी संसद भवने आयोजिते अभिमुखीकरण कार्यक्रमे अध्यक्ष ओली अकथयत् संसदी प्रधानमन्त्रिणे पुष्पकमल दाहालाय विश्वासस्य मतं दापयितुं सर्वकारस्य कार्याणि प्रभावकारिणी विधातुं च एमाले दलं सर्वप्रकारकं सहयोगं करोति। अध्यक्ष ओली नेपालीभिः स्वयमेव सर्वकार सञ्चालनस्य सामर्थ्याभावत्वेन वैदेशिक चलखेल हस्तक्षेपौ जायमानौ स्तः इति चर्चयन् अगदत् वर्तमान सर्वकारः तस्य विरूद्धे सन्तिष्ठते। नेकपा माओवादी केन्द्रेण बृहद वामैकतायै उपाध्यक्षस्य कृष्णबहादुर मराविदस्य संयोजकत्वे कार्यदलं संघटितं वर्तते। माओवादी केन्द्रस्य ह्य उपविष्टेन केन्द्रीय कार्यालयस्य उपवेशेन महासचिव देव प्रसाद गुरूङ उपमहासचिव त्रयम गिरिराजमणि पोखरेल जनार्दन शर्मा शक्तिबहादुर बस्नेत चेती जनै सहितम पञ्च सदस्यीयम कार्यदलमिदं संघटितं वर्तते। उपवेशेन दलाध्यक्षस्य पुष्पकमल दाहाल प्रचण्डस्य नेतृत्वे संघटितस्य सर्वकारस्य प्रधानमन्त्रिणा अस्यैव पौषस्य षड्विंशे दिवसे प्रतिनिधि सभायां विश्वासस्य मतस्य ग्रहण विषयिणी कार्यतालिका स्थिति हेतोः एतदर्थं प्रतिनिधि सभायां विद्यमानानि सर्वाणि दलानि स्वतन्त्र सांसदाञ्च दलस्य पक्षतः आह्वातुं निर्णीतमिति प्रवक्ता महरा अवोचत्। सत्तायां सहभागिनां दलानां कार्यदलेन निर्मितं न्यूनतम संयुक्त कार्यक्रमाणां प्रारूपं सत्तारूढ दलानां शीर्ष नेतृभ्यः अर्पितमस्ति। बालवाटार वर्तिनी प्रधानमन्त्री निवासे ह्य सायं कार्यदलेन प्रारूप प्रतिवेदनमेतत् अर्पितमस्ति। सर्वकारस्य कार्याणां प्रभावकारी सम्पादनस्य विषये सत्तायां सहभागी दलैः अस्यैव पौषस्य चतुर्दशे दिवसे कार्यदलं संघटितम् आसीत्। नेकपा एमाले दलस्य उपाध्यक्षस्य च उपप्रधानार्थमन्त्रिणः विष्णु पौडेलस्य संयोजकत्वे संघटिते कार्यदले नेकपा माओवादी केन्द्रस्य उपमहासचिवः वर्षमान पुन राष्ट्रिय स्वतन्त्र दलस्य महामन्त्री मुकुल ढकालः राष्ट्रिय प्रजातन्त्र दलस्य धवल शमशेर राणा जनता समाजवादी दलस्य रकम चमजम च सदस्याः आसन्। प्रतिवेदने सर्वकारस्य प्रभावकारी रूपेण संचालनाय सर्वकारस्य प्राथमिकतायाः निर्धारणेन सहैव सामाजिक न्यायस्य सुशासनस्य समृद्धेश्च क्षेत्राणां विविध विषयाः समाविष्टाः सन्तीति कार्यदलस्य सदस्यः वर्तमान पुन ज्ञापयति। नेकपा एकीकृत समाजवादी दलस्य अध्यक्ष माधव कुमार नेपाल कथयति लोकतान्त्रिक गठबन्धनस्य त्रोटने नेपाली कांग्रेस दलम दायित्ववाही वर्तते। दलस्य निकटवर्तिनः नेवा राष्ट्रिय संघस्य अधिवेशनस्य राजधान्यम् उद्घाटनस्य क्रमे ह्य अध्यक्षो नेपालः सांविधानिकानां राजकीयाञ्च पदानाम् आवंटने कांग्रेस दलेन गठबन्धनस्य सहयात्री दलानां भूमिकायै योगदानाय च महत्वं न प्रदत्तम्, कतिचित् नेतृणाम् अहंकारेण नूतन ध्रुवीकरणं सम्भूतमिति च विचारं व्यक्तवान्। अध्यक्षो नेपालः अवोचत् सर्वकारस्य संयुक्त नीति कार्यक्रमान् अदित्यैव दलेन विश्वासस्य मतं प्रदीयते न वेति विषये निर्णयो विधास्यते। राष्ट्रपति विद्यादेवी भण्डारी हो मदन पुरस्कार पुस्तकालयम अवालोकयत। राष्ट्रपति भण्डारी साझा यातायात संस्थाया वैद्युत बसयानम आरुह्य ललितपुरस्य पाटन ढोका स्थानम प्राप्य तम पुस्तकालयम ललितपुरे एव वर्तमानाम पुरातात्विकस्य ऐतिहासिकस्य च महत्वस्य पिम्बहाल पुष्करिणीम च अवालोकितवती। तदवसरे राष्ट्रपति भण्डारिणम ललितपुर महानगरपालिकाया प्रमुख श्रीबाबु महर्जन पुस्तकालयस्य अध्यक्ष कनकमणि दीक्षिताश्च अभ्यर्थयताम्। पुस्तकालयस्य अवलोकनस्य क्रमे राष्ट्रपति भण्डारी पञ्चदशाधिक द्विसहस्रतम विक्रम वर्षस्य निर्वाचने नेपाल कम्युनिष्ट पार्टीति दलेन निर्मितस्य नैर्वाचनिक घोषणा पत्रस्य एकं प्रतिरूपम् अगृह्णात्। स्वस्थानी व्रतकथा गरूड पुराण प्रवृत्ति पुस्तकानां सार संक्षेपं च अशृण्वत् इति ललितपुर महानगरपालिकायाः प्रमुख महर्जन अज्ञापयत्। उपप्रधान गृहमन्त्री रवि लामिछाने प्रहरीणाम क्षमतायाः व्यावसायिकतायाश्च आधारेण स्थानान्तरणं पदोन्नतिश्च क्रियते इति स्पष्टीकरोति। सशस्त्र प्रहरी बल नेपालस्य हलचोकवर्तिनः प्रधान कार्यालयस्य निरीक्षणस्य पश्चात् यस आयोजिते कार्यक्रमे उपप्रधानमन्त्री लामिछाने प्रहरी कर्मचारिणां स्थानान्तरणं पदोन्नतिश्च क्षमतायाः व्यावसायिकतायाः नैतिकतायाः ज्ञानस्य च आधारेण भवता इति स्पष्टीकृतवान्। असौ विगतकाले किं न्यूनतां संशोध्य प्राशासनिक क्षेत्रे व्यवस्थापकीय क्षेत्रे च शून्य दुर्बलतया कार्य सम्पादनं विधातुं निर्दिष्टवान्। उपप्रधान भौतिक पूर्वाधार यातायात मन्त्री नारायण काजी श्रेष्ठ सामाजिक न्यायन सहितां समृद्धिम् अधिगन्तुं बलं ददाति। ह्यो नेवा पत्रकार रद बुद्ध संस्थाया चतुर्थ महाधिवेशने असौ षाणाम दशकानाम दीर्घकालिकयो संघर्ष बलिदानयो माध्यमेन एकात्मक शासन प्रणालीम् समाप्य संघीय लोकतान्त्रिक गणतन्त्रस्य संस्थापनस्य कारणात् अतपरम् सामाजिक न्यायन सहितां समृद्धिम् अधिगन्तुम् यतनीयमिति प्रत्यपादयत् इति समाचारः।